सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्। प्रथमतया अहम् एकं नूतनं सुभाषितं श्रावयामि। विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसुपूज्यते नहि धनं विद्या विहीनः पशुः। एतत् एकं सुभाषितं, भर्तृहरेः सुभाषितं। साधारणतया वयं विद्यायाः प्रयोजनं किम् इति प्रश्नः सर्वेषां मनसि आगच्छति एव, यदा कदापि आगच्छति एव। विद्यायाः प्रयोजनं किं, विद्या किमर्थं, तस्य प्रयोजनं किं, तस्याः प्रयोजनं किम् इति एतत् सुभाषितं वदति। अनन्तरं सुभाषितस्य अन्ते भर्तृहरिः सः वदति विद्याविहीनः पशुः, यस्य पार्श्वे विद्या नास्ति सः पशु इव प्रवर्तते। एतत् एकं सुभाषितम्। अनन्तरं गतसप्ताहे अहं किञ्चित् गृहपाठं, गतसप्ताहे वयं किं कृतवन्तः इत्युक्ते, वयं सर्वे मिलित्वा एषः सः एषा सा एतत् तत् एतेषां षट् सर्वनामपदानां विषये सम्यक्तया वयं चिन्तनं कृतवन्तः, अपि च कः का किम् इति त्रीणि प्रश्नवाचकपदानि अपि वयं ज्ञातवन्तः। अपि च गतसप्ताहे गतमङ्गलवासरे गृहपाठरूपेण किञ्चित् ईमेल् माध्यमेन अहं किञ्चित् गृहकार्यं प्रेषितवती, भवन्तः कृतवन्तः वा, दृष्टवन्तः वा गृहकार्यं, कार्यं किम् अथवा गृहपाठः कः इति भवन्तः दृष्टवन्तः वा? डिडिगेटेड् चान्स् टु लिक् इन् टु द होम्वर्क्?
Bhagini, this is Shankaran. This is Shankaran speaking. See, what has happened? I have joined this group only 2 days back because somehow my email ID was missing.
Anantra vadatu mahadeya, kevalam gruha paatha vishaye eva vadatu. Anyat vishaye
because I didn't receive the mails, you know. I am receiving the mails only from tomorrow, yesterday.
Astu mahadeya.
Please.
Bhavantah anye drushtavantah va gruhapatharupena kim dattam.
Bhagini, I've done my homework. Bajat. Yeah. Asmuk.
Sundaram mahadeya.
Samir here. I have done my homework too.
Uttama mahadeya.
Yeah. Rajiv Singh, I have done my homework as well.
Uttamam.
Lakshmi, I have done my homework too.
Sundaram. Uttamam. Adhuna vayam kim kurmaha ichyukte. Kinchit. Tasmineva vishye kinchit pashyema. Punaha sarvanama padanam vishye kinchit abhyasam kurmaha. Sarvesham parthve. ई पत्रे एकं वर्णचित्रम् अहं प्रेषितवती, सर्वेषां पार्श्वे तत् वर्णचित्रम् अस्ति वा? अस्ति चेत् पुरतः स्थापयन्तु। ऐ वाण्ट् यू टु कीप् द कलर् पिक्चर् दट् ऐ सेण्ट् इन् मै ईमेल्, होम्वर्क् ईमेल्। सर्वेषां पार्श्वे तत् वर्णचित्रं स्यात्, सर्वे वर्णचित्रं पश्यन्तु। वर्णचित्रं पश्यन्तु। अत्र अत्र श्रीरम्या भगिनी अस्ति वा भगिनी अस्मि अस्मि श्रीरम्या भगिनी श्रीरम्या भगिनी अत्र अत्र श्रीरम्या भगिनी श्रीरम्या भगिनी श्रीरम्या भगिनी श्रीरम्या भगिनी Re-sound is coming.
Re-sound is coming.
Okay. Okay. Asmin pute.
Asmin pute.
Kani vastu ni
kani vastu ni
atra. Atra. Bhagini vadati va.
Bhagini vadati va.
Kakshya.
Upari 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 ekam dattamasti.
Dattamasti.
विद्यालयसम्बन्धीनि पदानि
विद्यालयसम्बन्धीनि पदानि अत्र पश्यतु भगिनी विद्यालयपदानि इत्यस्मिन्
चत्वारि पदानि सन्ति
कक्ष्या दीर्घपीठिका
एकवारम् अत्र विद्यालयसम्बन्धीनि इत्यस्मिन् चत्वारि पदानि सन्ति विद्या आलयसम्बन्धीनि पदानि चत्वारि पदानि सन्ति एकस्मिन् एव पदे तथा चत्वारि पदानि योजितानि सन्ति चेत् समस्तपदम् एतत् समस्तपदम् इति वदामः यदि यत्र कुत्रापि वयम् एतादृशं पदं पश्यामश्चेत् एतत् पदं समस्तपदम् इति वदामः इत्युक्ते इफ् यु फैण्ड् दिस् कैण्ड् आफ् वर्ड्स् वि काल् दम् एस् समस्तपदम् किमर्थमित्युक्ते तत्र समासाः सन्ति तस्मिन् समासाः यदि एतादृशम् एतां पश्यामश्चेत् वयं जानीमः जानीमः
समस्तपदम्
इति वदामः अधुना भवती एव अत्र किमस्ति किमस्ति
कक्ष्या स्यूतः पुस्तकं लेखनी समस्त
अन्यानि पदानि अपि पठतु
दीर्घपीठिका दीर्घोत्पीठिका उत्पीठिका आसन्दः छत्रं बालः बालिका
उत्तमम् अत्र कति पदानि सन्ति अधुना वयं गणनां
कुर्मः
संस्कृतभाषायां गणनां कुर्मः
दशपदानि अस्ति
दश वा पुनः गणनां करोतु एकादशपदानि सन्ति अत्र संस्कृतभाषायां अत्र एकं
द्वे
त्रीणि
चत्वारि
पञ्च
षट्
सप्त
अष्ट
नव
दश
एकादश तथा वदामः अत्र
एकादशपदानि
सन्ति अपि च
अत्र
एतेषु कति पदानि
पुंलिङ्गे सन्ति
कति स्त्रीलिङ्गे
स्त्रीलिङ्गपदानि
सन्ति
स्त्रीलिङ्गपदानि सन्ति
कति नपुंसकलिङ्गपदानि सन्ति भवती अभिज्ञातुं शक्नोति वा केन् यु रिकग्नैज् belong to
which gender
abhignatum shaknuti va भगिनि प्रथमं पदं अत्र कक्ष्या
प्रथमं पदं नपुंसकलिङ्गं
वयं किं कुर्मः इत्युक्ते राजीव सिंह महोदय भवान् द्रष्टुं शक्नोति वा वदतु महोदय
हलो
वदतु
ओ एक्चुअली I missed that email which you sent, but I did the homework creating small sentences from the workbook.
Oh, okay. Nasti chit atra Lakshmi Bhagini asti. Lakshmi Bhagini bhavati karoti va?
Balika strilinga. I didn't follow the question.
The question is atra एकादश पदानि सन्ति एतेषु स्त्रीलिङ्गपदानि कानि पुंलिङ्गपदानि कानि अपि च नपुंसकलिङ्गपदानि कानि वदतु भवती अभिज्ञातुं शक्नोति वा केन् यु रेकग्नैज़् विच् वर्ड् बिलाङ्ग्स् टु विच् जेण्डर्
बालिका स्त्रीलिङ्ग बालः पुल्लिङ्ग छत्रं नपुंसकलिङ्ग लेखिनी नपुंसकलिङ्ग पुस्तकं नपुंसकलिङ्ग स्यूतः नपुंसकलिङ्ग
आसङ्गः पुनः वदतु
पुल्लिङ्गलिङ्ग आसन्दः पुल्लिङ्ग उत्पीठिका स्त्रीलिङ्ग दीर्घपीठिका स्त्रीलिङ्ग दीर्घोत्पीठिका स्त्रीलिङ्ग
दीर्घोत्पीठिका स्त्रीलिङ्ग अत्र पश्यन्तु दीर्घोत्पीठिका
दीर्घोत्पीठिका
दीर्घपीठिका इति पदद्वयमस्ति दीर्घपीठिका अस्मिन् पदे दीर्घ अपि च पीठिका तथा पदद्वयमस्ति तत्रापि समासः अस्ति तदपि समस्तपदम् इति वदामः अपि च दीर्घोत्पीठिका तत्रापि दीर्घ उत्पीठिका तत्रापि पदद्वयमस्ति अतः समस्तपदम् इति वदामः अत्र भगिनी भवती एव वदतु कति पुंलिङ्गपदानि सन्ति अस्मिन् चित्रे
लक्ष्मी
वदतु
Lakshmi, I have a doubt. Lakshmi, ye lekhani, lekhani is strilinga or napusanglinga?
Adhra pashyema. Mohode, purva mema aham uktavati. Gata saptahe aham pumlinga padani, strilinga padani, napumsanglinga padani kadham jnatum shaknumaha. Aham purva mema uktavati. Bhavantaha sarve... फणिमुद्रणं शृण्वन्तु भवन्तः सर्वे कक्षायाः अनन्तरं सर्वे ध्वनिमुद्रणं शृण्वन्तु इत्युक्ते ऐ रिक्वेस्ट् यु आल् टु लिसन् टु द आडियो फैल् दट् वि आर् रेकार्डिङ्ग् सो महोदय लेखनी इति पदं स्त्रीलिङ्गपदम् अत्र भगिनी वदतु भगिनी अत्र कति पुंलिङ्गपदानि सन्ति कथम् अभिज्ञातुं शक्नुमः How did you recognize that it is a pumlinga padam? How many pumlinga words?
Yeah. And anything that ends with the... anything that ends with the aha is pumlinga.
Pumlinga. Uttama. Atra, kati padani santi pumlinga padani?
Balaha, asandaha, syutaha.
बालः आसन्दः स्यूतः केवलं त्रीणि पुंलिङ्गपदानि सन्ति केवलं त्रीणि. अनन्तरं कति स्त्रीलिङ्गपदानि सन्ति अत्र? अत्र यदि पदस्य अन्ते विसर्गः श्रूयते तदा तत्पदं पुंलिङ्गपदम् इति वदामः. इफ् यु हियर् द सौण्ड् आफ् विसर्ग देन् यु केन् से दट् इट् इस् ए पुंलिङ्गपदम्. यदि पदस्य अन्ते दीर्घ आकारः वा अथवा दीर्घ ईकारः वा श्रूयते चेत् तदा वयम् अभिज्ञातुं शक्नुमः यत् तत्पदं स्त्रीलिङ्गपदम्. अत्र कति स्त्रीलिङ्गपदानि सन्ति भवती एव वदतु.
बालिका षट्पदानि स्त्रीलिङ्गपदानि. कक्ष्या, दीर्घोत्पीठिका, दीर्घपीठिका, उत्पीठिका, लेखनी, बालिका, षट्पदानि स्त्रीलिङ्गपदानि.
भगिनी कः वदति अधुना?
यदि पदानि दीर्घ आकार अपि च दीर्घ ईकार अन्त अस्ति षट्पदानि स्त्रीलिङ्गपदानि.
स्त्रीलिङ्गपदानि उत्तमम्. अत्र दीर्घोत्पीठिका, कक्ष्या, दीर्घपीठिका, उत्पीठिका अपि च बालिका, लेखनी एतानि षट् पदानि स्त्रीलिङ्गपदानि. किमर्थं तथा इत्युक्ते तेषाम् अन्ते दीर्घ आकारः वा अथवा दीर्घ ईकारः वा अस्ति. लेखनी इत्यस्मिन् पदस्य अन्ते दीर्घ ईकारः श्रूयते, लेखनी. तत्र दीर्घ ईकारः श्रूयते अतः वयं ज्ञातुं शक्नुमः यत् एतत् पदम् ईकारान्तस्त्रीलिङ्गपदम्. कक्ष्या, दीर्घोत्पीठिका, दीर्घपीठिका, उत्पीठिका तदा ते सर्वे अपि आकारान्तस्त्रीलिङ्गपदानि. अनन्तरम् अत्र कति नपुंसकलिङ्गपदानि सन्ति कः वदति? अत्र सुबारो महोदय भवान् वदति वा, वक्तुमिच्छति वा?
छत्रं
सुबारो महोदय भवान् वक्तुं शक्नोति वा कति नपुंसकलिङ्गपदानि सन्ति अस्मिन् पुटे? अस्ति वा महोदय? नास्ति चेत् अत्र शङ्करन् महोदय भवान्
यत्र पदस्य अन्ते मकारः इम् अस्ति चेत् तदेव नपुंसकलिङ्गपदानि.
नपुंसकलिङ्गपदं
पदं
भवान् वदति वा अस्मिन् चित्रे कति नपुंसकलिङ्गपदानि सन्ति?
No, I didn't receive that email, you know, because that K was missing in my line. So, I am just telling you the Lakshana. Lakshana I have written. I'm sorry.
Astu.
Shamapanam karomi.
Anantam atra. Atra. Hasmukh Mahodaya asti.
Yeah.
Bhavan Vaktam Ichchati Va Mahodaya. Asmin Pute.
Ete Dvi Padani Napushanka Lingam. नपुंसकलिङ्गं, छत्रम् एवं पुस्तकम्.
छत्रम् अपि च पुस्तकम्
एवं पुस्तकम्.
अत्र केवलं शब्दद्वयम् इत्युक्ते पदद्वयमेव नपुंसकलिङ्गे स्तः. अत्र केवलं छत्रम् अपि च
पुस्तकं
तयोः अन्ते तत्र मकारः वा अनुस्वारः वा श्रूयते. अत्र सर्वे पश्यन्तु अत्र एकं पदमस्ति कक्ष्या इति पदमस्ति तस्मिन् अस्मिन् पदे क्षा इति अक्षरमस्ति क्षा क्षा इति अक्षरमस्ति तस्य नामस्ति संयुक्ताक्षरम् इति वदामः क्ष इत्यस्मिन् अक्षरे ककारः अपि च मूर्धन्यषकारः अस्ति क्ष इत्यस्मिन् अक्षरे ककारः अपि च मूर्धन्यषकारः अस्ति भाषायां एकमस्ति अत्र स्यूतः स्यूतः इत्यस्मिन् पदे एकः सकारः अस्ति तस्य नाम अस्ति दन्त्यसकारः दन्त्यसकारः कृष्ण इत्यस्मिन् पदे षकारः अस्ति तस्य नाम अस्ति मूर्धन्यषकारः अनन्तरं अत्र अनन्तरं शैल शैल इति पदं पश्यामश्चेत् तत्र तालव्यषकारः अस्ति तथा अत्र कक्षा इत्यस्मिन् पदे क्ष इति अक्षरं संयुक्ताक्षरम् अपि च तस्मिन् ककारः अपि च षकारः अस्ति अतः संयुक्ताक्षरम् इति वदामः अनन्तरम् अत्र केवलम् एकमेव ईकारान्तस्त्रीलिङ्गपदम् अस्ति लेखनी इति पदम् ईकारान्तस्त्रीलिङ्गपदं तद्विहाय सर्वे अन्यानि स्त्रीलिङ्गपदानि सर्वे अपि सर्वाणि अपि आकारान्तस्त्रीलिङ्गपदानि अत्र अनन्तरं साधारणतया एतानि सर्वाणि पदानि अपि प्रथमाविभक्तौ सन्ति अपि च एकवचने सन्ति एतानि सर्वाणि पदानि अपि नामपदानि दिस् आर् आल् नौन्स् and they are all in first case and they are all in singular number yadi etani sarvani api namapadani iti vadamaha etani sarvani api prathama vibhaktau santi api cha ekavachane santi parantu keval matra linga bhedaha atra drushyate that means all these words are in first case and singular number but only thing is we can recognize the gender difference here kevalam atra linga bheda asti yadi vayam ekam padam pasyamachet tatra padasya roopam drushtva vayam abhignatum shaknumaha yat etat strilinga padam va pumlinga padam va adva napumsika linga padam va iti vayam avagantum shaknumaha ichukte that means if you look at the words you can recognize which gender they belong to iti ekah binduh atra anantram payam sadharanataya yadi paathashalam gachhamaschet yadi vayam sadharanataya paathashalam gachhamaschet tatra vayam etani sarvani vastuni drashtum shakramaha एतदेव दृश्यं तत्र दृश्यते इफ् यु गो टु य स्कूल् यु केन् सी आल् दीस् थिङ्ग्स् इन् ए स्कूल् अत्र स्यूतः लेखनी अङ्कनी छत्रम् एतानि वस्तूनि छात्राणां कृते अत्यावश्यकानि ऐ एम् राइट् सत्यं किल अत्र स्यूतः पुस्तकं लेखनी छत्रम् एतानि वस्तूनि छात्राणां कृते अत्यावश्यकानि वस्तूनि अत्र एतानि पदानि उपयुज्य वयं कानिचन वाक्यानि रचयामः अधुना अत्र कक्ष्या इति पदमस्ति कक्ष्या इति पदम् उपयुज्य एकं वाक्यं रचयामः कः वक्तुमिच्छति कक्ष्या लक्ष्मी भगिनी भवती करोति वा एकं वाक्यं कक्ष्या इति पदम् उपयुज्य एकं वाक्यं रचयामः. भगिनि भगिनि
किं कक्षा चक्ष्या
किं कक्षा उत्तमम् अस्माकं अस्माकं वदतु भगिनि
एषा कक्षा या एतत् कक्षा
एषा कक्षा अधुना वयं किं कुर्मः इत्युक्ते अत्र सर्वनामपदानि अपि उपयुज्य वाक्यं रचयामः. भवती एव सर्वनामपदम् उपयुज्य वदतु. एषा का भगिनि कक्षा कक्ष्या इति पदम् उद्दिश्य अहं पृच्छामि. ऐ एम् जस्ट् पायिण्टिङ्ग् टुवर्ड्स् द वर्ड् कक्ष्या. ऐ एम् आस्किङ्ग् यु द क्वश्चन् एषा का भगिनि. तस्य उत्तरं किं भवति?
का कक्ष्या
एषा का इति अहं पृच्छामि. ऐ एम् आस्किङ्ग् वाट् इस् दिस्. उत्तरं किं उत्तरं किं भवति?
एतत् कक्ष्या
एतत् कक्षा एतत् कक्षा समीचीनं वा समीचीनं वा स्त्रीलिङ्गपदानां कृते सर्वनामपदं किं
स्त्रीलिङ्ग
एषा कक्षा अहं प्रश्नं पृच्छामि एषा का उत्तरं किं भवति?
एषा कक्ष्या
एषा कक्ष्या यदि समीपे अस्ति चेत् एषा कक्ष्या इति वदामः. दूरे अस्ति चेत्
सा कक्ष्या
सा कक्ष्या उत्तमम्. अनन्तरं दीर्घोत्पेटिका त्रीणि वाक्येन वदतु अत्रापि.
एषा दीर्घ दीर्घोत्पीठिका
एषा दीर्घोत्पीठिका प्रश्नः कः तस्य कृते?
का दीर्घोत्पीठिका
का दीर्घोत्पीठिका एषा दीर्घोत्पीठिका तदा भवति. तथा नास्ति चेत् एषा का?
एषा दीर्घोत्पीठिका
एषा दीर्घोत्पीठिका का दीर्घोत्पीठिका
एषा दीर्घोत्पीठिका
उत्तमम् उत्तमम्. अनन्तरं शायरवळ्ळि भगिनी भवती करोति वा तृतीयम्?
आं भगिनि
करोतु.
एषा उत्पीठिका एषा का
दीर्घपीठिका अहं तृतीयं तृतीयम् उद्दिश्य वदामि.
एषा का एषा दीर्घपीठिका
एषा दीर्घपीठिका
सा का सा दीर्घपीठिका
उत्तमम्. अनन्तरम् अपि करोतु
भगिनि. भगिनि वन् स्माल् रिक्वेस्ट् since I don't have the book in my friend, can you please tell me what is kaksha, what is dirgha pitika, so that I will make I am writing all those things, please help me.
Uttamam vadami mahodaya. Atra kaksha kaksha ichchate asmakam kaksha asmakam kaksha bhasha vargaha. Our class is bhasha varga क्लास् कक्षा इत्युक्ते क्लास्
क्लास् वर्गं
वर्गः अपि उत्तमं पर्यायवाचकपदं
पर्यायवाचकः
दीर्घपीठिका वदामि वदामि. अत्र कक्षा कक्षा इत्यस्मिन् इति पदम् उपयुज्य अहम् एकं वाक्यं वदामि. अस्माकं कक्षायां कति छात्राः सन्ति अधुना? इन् अवर् क्लास् हौ मेनि स्टूडेण्ट्स् आर् देर् नौ? अस्माकं कक्षायां द्वादश छात्राः सन्ति. अस्माकं कक्षायां द्वादश छात्राः सन्ति. अनन्तरं दीर्घोत्पीठिका इति पदमस्ति. दीर्घोत्पीठिका इत्युक्ते अत्र साधारणतया पाठशालायां दीर्घोत्पीठिका इत्युक्ते लाङ्ग् बेञ्च्
ऐ अण्डर्स्टाण्ड् नौ ऐ अण्डर्स्टाण्ड् ओके
दीर्घोत्पीठिका लाङ्ग् बेञ्च् अस्ति. अनन्तरं दीर्घोत्पीठिकायां साधारणतया वयं किं कुर्मः, छात्राः किं कुर्वन्ति इत्युक्ते साधारणतया छात्राः दीर्घोत्पीठिकायां तेषां पुस्तकानि स्थापयित्वा ते पठितुम् उद्युक्ताः भवन्ति कक्षायां. साधारणतया कक्षायां छात्राः दीर्घोत्पीठिकायां पुस्तकानि संस्थाप्य पठितुम् उद्युक्ताः भवन्ति. अनन्तरम् अत्र अस्मिन् चित्रे दीर्घपीठिका अस्ति. दीर्घपीठिका तस्याः प्रयोजनं किम् इत्युक्ते दीर्घपीठिकायां साधारणतया छात्राः उपविशन्ति. स्टूडेण्ट्स्
स्माल् बेञ्च्
स्माल् बेञ्च् उत्तमं
कम्पेरिटिव्लि ओके.
अनन्तरम् अस्मिन् चित्रे उत्पीठिका इति एकमस्ति. अस्माकं पाठशालायां साधारणतया उत्पीठिका इत्युक्ते तत्र अध्यापकः उत्पीठिकायाम् उपरि उत्पीठिकायाः उपरि तस्य पुस्तकानि वा अथवा वस्तूनि वा संस्थाप्य अथवा स्थापयित्वा सः उत्थाय पाठं पाठयति. सुधाखण्डः वा अथवा पुस्तकानि वा अथवा अन्यानि वस्तूनि तत्र स्थापयित्वा अध्यापकः उत्थाय पाठं पाठयति. अनन्तरम् आसन्दः अस्ति. आसन्दः इत्युक्ते अत्र आसन्दे उपविश्य वयं पठामः. अधुना भवन्तः सर्वे अपि आसन्दे उपविश्य पठन्तः सन्ति. युर् आल् सिटिङ्ग् इन् द चेर् अण्ड् लर्निङ्ग् ऐ अस्यूम्. अहं चिन्तयामि यत् भवन्तः सर्वे अपि आसन्दे उपविश्य पठन्तः सन्ति. अत्र स्यूतः अस्ति. स्यूतः इत्युक्ते स्यूतः तस्य प्रयोजनं किं, किमर्थं स्यूतः इत्युक्ते वयं सर्वे नास्ति, अत्र छात्राः साधारणतया के स्यूते पुस्तकानि, लेखनी, अङ्कनी, मापिका तथा सर्वाणि वस्तूनि तस्मिन् स्यूते स्थापयित्वा ते पाठशालां गच्छन्ति.
तकारं द्वितीयतकारम् एकार ते स्यूते
स्यूते स्यूते इत्युक्ते सप्तमी विभक्ति महोदय. अत्र पदमस्ति स्यूतः. स्यूते स्थापयित्वा
स्यूते मम प्रश्नं वा स्यू तकारः एकस्य प्रथमतकारः द्वितीयतकारः
अनन्तरम् अत्र पुस्तकम् अस्ति. पुस्तकमिति पदम् उपयुज्य अन्यत् वाक्यं रचयामः. अधुना अस्माकं पुस्तकस्य नाम किम्? अस्माकं पुस्तकस्य नाम कः वदति? अभ्यासपुस्तकम्. उत्तमम्. अस्माकं पुस्तकस्य नाम अभ्यासपुस्तकम्. अत्र अस्मिन् चित्रे एव एकः बालः दृश्यते. सः कथं दृश्यते, हौ डस् हि लुक् लैक्, किञ्चित् वर्णनं कुर्मः चेत् तत्र बालकस्य हस्ते एका पेटिका अस्ति. सः पेटिकां धृत्वा, सः बालकः पेटिकां धृत्वा विद्यालयं गच्छति. सः गच्छन् अस्ति. हि इस् होल्डिङ्ग् ए बाक्स् इन् हिस् हेण्ड् अण्ड् हि इस् गोयिङ्ग् टु स्कूल्. सः बालकः पेटिकां धृत्वा विद्यालयं गच्छन् अस्ति. तत्र एका बालिका अपि अस्ति, सा किं करोति अत्र, सा क्रीडति, क्रीडन्ती इव अस्ति अत्र. अपि च एकं छत्रमस्ति, छत्रस्य प्रयोजनं किं, कः वदति? छत्रं छत्रं किमर्थं, छत्रस्य प्रयोजनं किं, कः वदति? लक्ष्मी भगिनी वदतु, वदतु महोदय. वदतु, छत्रम् इति पदम् उपयुज्य वयं कानिचन वाक्यानि रचयितुं शक्नुमः. यथा साधारणतया यदि बहिः वृष्टिः अस्ति, वृष्टिः इत्युक्ते रेन्, बहिः वृष्टिः अस्ति, परन्तु बहिः गन्तव्यम् एव, तदा वयं किं कुर्मः? तदा वयं छत्रं गृहीत्वा बहिः गन्तुं शक्नुमः. तथा अत्र एकादशवस्तूनि सन्ति. अत्र सर्वे अपि किञ्चित् मौखिक अभ्यासं कुर्वन्तु, शीघ्रं शीघ्रं कुर्मः. कः वक्तुमिच्छति प्रथमतया? एकमेकं पदम् उपयुज्य, एकमेकं पदं स्वीकृत्य, सर्वनामपदम् अपि उपयुज्य, प्रश्नवाचकपदम् अपि उपयुज्य त्रीणि वाक्यानि रचयितुं शक्नुमः. कः कर्तुमिच्छति प्रथमतया?
सः छत्रं,
सः छत्रं, तत् सम्यक् नास्ति.
किं छत्रं,
किं छत्रम्, उत्तरं किम्?
एतत् छत्रम्.
उत्तमं.
तत् छत्रं छत्रस्य उपयोगं वर्षाकाले,
अहम् उक्तवती एव महोदय, उक्तवती एव. अधुना वयं किं कुर्मः इत्युक्ते, केवलं एकं पदं स्वीकृत्य सर्वनामपदानि अपि उपयुज्य वाक्यं रचयामः. लक्ष्मी भगिनी भवती करोति वा?
एषः बालकः, एषः बालकः, एषः बालः.
प्रथमतः स्टार्ट् वित् कक्षा, शीघ्रं शीघ्रं कुर्मः.
कक्षा,
पुनः
एषा, एषा कक्षा.
का कक्षा?
सा, सा कक्षा.
किं एषा का?
एषा,
अहं पृच्छामि, एषा कक्षा. सा का?
सा कक्षा,
सा कक्षा. द्वितीयं सर्वे शृण्वन्तु.
एषा दीर्घोत्पीठिका.
एषा का? तस्य उत्तरम् एषा दीर्घोत्पीठिका. का दीर्घोत्पीठिका?
एषा दीर्घोत्पीठिका.
दूरे अस्ति चेत् सा का?
सा, सा दीर्घोत्पीठिका.
उत्तमं. तृतीयं प्रति गच्छतु, तृतीयं पदम्.
एषा दीर्घपीठिका, एषा दीर्घपीठिका,
सा दीर्घपीठिका,
एषा दीर्घपीठिका.
उत्तमम्. अनन्तरं का चतुर्थम्? एषा का चतुर्थं, चतुर्थम्?
एषा एषा उत्पीठिका, एषा
एषा उत्पीठिका. का उत्पीठिका?
सा उत्पीठिका,
सा उत्पीठिका. ऐ एम आस्किंग फर्स्ट, वाट इज दिस? एषा का?
एषा उत्पीठिका.
उत्तरम्. उत्तमम्. अनन्तरं का उत्पीठिका? विच टेबल?
सा उत्पीठिका,
एषा उत्पीठिका. उत्तमम्. यदि दूरे अस्ति चेत् वाट इज दट्?
सा उत्पीठिका,
सा उत्पीठिका. तथा अनन्तरं पञ्चमं, तत्र पञ्चमं पदं किमस्ति अत्र?
आसन्दः,
आसन्दः. एषः कः?
एषः आसन्दः
तत् कः आसन्दः कः आसन्दः
आसन्दः
पुनः वदतु भगिनि
एतत् कः एतत् आसन्दः
एतत् सम्यक् नास्ति किमर्थं कः वदति एतत् आसन्दः समीचीनं वाक्यं नास्ति भगिनि म्यूट् करोतु भगिनि ध्वनिः अस्ति भवत्याः
कः आसन्दः कः आसन्दः एषः आसन्दः एषः आसन्दः सः आसन्दः
समीचीनमेव एषः कः अहं पृच्छामि तस्य उत्तरं किं भवति एषः आसन्दः
एषः आसन्दः
किमर्थं तदा वदामि एषः आसन्दः मम पार्श्वे अस्ति यदि आसन्दः मम पार्श्वे अस्ति चेत् एषः आसन्दः वदामः अनन्तरं यदि आसन्दः दूरे अस्ति चेत् सः कः
सः कः सः आसन्दः
अहं पृच्छामि कः आसन्दः
सः आसन्दः
सः आसन्दः उत्तमं तथा एव वयं वक्तुं शक्नुमः अनन्तरम् उत्तमं महोदय अनन्तरम् अत्र सुब्बाराव् महोदय भवान् वक्तुमिच्छति वा अनन्तरं स्यूतः
नमस्ते
नमस्ते महोदय वदतु महोदय अत्र
स्यूतः
एषः कः
एषः स्यूतः
कः स्यूतः
स्यूतः सः स्यूतः
सः स्यूतः यदि स्यूतः पार्श्वे अस्ति चेत् एषः स्यूतः इति वदामः यदि स्यूतः दूरे अस्ति चेत् सः स्यूतः अस्माकं पार्श्वे अस्ति चेत् एषः इति वदामः दूरे अस्ति चेत् सः इति वदामः अहं पृच्छामि कः स्यूतः
एषः स्यूतः
सुन्दरम् एषः स्यूतः अथवा सः स्यूतः द्वयमपि समीचीनमेव उत्तमं महोदय अनन्तरं रमाबाई भगिनी अस्ति वा भगिनि नास्ति चेत् अत्र पुस्तकं हस्मुख् महोदय भवान् वक्तुमिच्छति वा पुस्तकं
किं पुस्तकं
प्रथमतया अहं पृच्छामि एतत् किम् एतत् किम् इति वदामि
एतत् किं
पुस्तकम् उद्दिश्य वदामि
एतत् पुस्तकं
किं पुस्तकम्
एतत् पुस्तकं
तत् किम्
तत् पुस्तकं
किमर्थम् एतत् किमर्थं तत् तयोर्मध्ये भेदः अस्ति वा अस्ति चेत् भेदः कः इस् देर् एनी डिफ्रेन्स् बिट्वीन् यूसिङ्ग् एतत् अण्ड् तत् इस् देर् एनी डिफ्रेन्स् इफ्
वदतु इट् इस् क्लोस् बै इफ् इट् इस् क्लोस् बै इट् इस् एतत् इफ् इट् इस् फार् अवे देन् इट् इस् तत्
उत्तमम् अनन्तरं लेखनीम् उद्दिश्य वदामि ऐ पायिण्टिङ्ग् टु लेखनी एषा का महोदय
एषा लेखनी
का लेखनी
सा लेखनी
एषा लेखनी एषा लेखनी समीचीनं अनन्तरं बालिका बालिकाम् उद्दिश्य अहं पृच्छामि एषा का
एषा बालिका
का बालिका
एषा बालिका
एषा बालिका यदि बालिका यदि बालिका पार्श्वे समीपे निकटे अस्ति चेदेव एषा बालिका इति वदामः यदि बालिका दूरे अस्ति चेत् तदा सा का इति प्रश्नं पृच्छामः
सा बालिका
सा बालिका
सा बालिका
का बालिका
एषा बालिका
एषा बालिका अथवा सा बालिका सा का इति वदामश्चेत् सा बालिका अनन्तरं बालः इति पदं किञ्चित् अभ्यासं करोतु महोदय एषः कः
एषः बालः
कः बालः
बालः एषः बालः और सः बालः
कः
सः बालः
कः बालः
सः बालः
सः बालः उत्तमम् अन्तिमम् अन्तिमं चित्रं छत्रम् एतत् किं
किं छत्रं
छत्रम् उद्दिश्य वदामि
किम् एतत् छत्रम्
एतत् छत्रम् किं छत्रम्
एतत् छत्रम्
एतत् छत्रं विच् अम्ब्रेला दिस् अम्ब्रेला तत् किं
तत् छत्रं तत् छत्रं
किं छत्रं किं छत्रम् इति प्रश्नं पृच्छामि चेत् तत् छत्रम् अथवा एतत् छत्रम् उत्तमं
छत्रं तत् छत्रं
भवन्तः सर्वे अवगच्छन्ति वा डिड् यू आल् अण्डर्स्टाण्ड्
यस् यस्
आम्
आं भगिनि
अनन्तरम् इदानीं पर्यन्तं वयं एषः सः एषा सा एतत् तत् अनन्तरं कः का किम् इति नवपदानि उपयुज्य कानिचन वाक्यानि रचितवन्तः वयं अनन्तरम् अधुना वयं किं कुर्मः इत्युक्ते अहं कानिचन प्रश्नानि केचन प्रश्नाः पृच्छामि प्रश्नान् पृच्छामि अत्र यदा कदा अहं वदन्ती अस्मि श्रूयते वा इति अहं sometimes I used to ask श्रूयते वा अहं शङ्करन् महोदयम् उद्दिश्य वदामि महोदय श्रूयते वा
श्रूयते श्रूयते
श्रूयते
शृणोमि शृणोमि
शृणोमि तत्र कथम् उत्तरं वक्तव्यं हौ यु शुड् आन्सर् इत्युक्ते हौ यु शुड् आन्सर् इस् आं भगिनि अहं आं श्रूयते आम् अहं शृणोमि
आं भगिनि आं भगिनि अहं शृणोमि
आं भगिनि अहं शृणोमि इति वदामि तदेव तदेव सम्यक् उत्तरं भवति अनन्तरम् उत्तमं महोदय अनन्तरं लक्ष्मीभगिनी लक्ष्मीभगिनीम् उद्दिश्य वदामि भगिनी भवत्याः पार्श्वे पुस्तकमस्ति वा भवत्याः पार्श्वे पुस्तकमस्ति वा डु यु हेव् द बुक् इन् फ्रण्ट् आफ् यू तथा वक्तव्यम् आं भगिनी मम पार्श्वे पुस्तकम् अस्ति तथा वक्तव्यं वदतु
आं भगिनी मम पार्श्वे पुस्तकम् अस्ति
मम पार्श्वे पुस्तकम् अस्ति उत्तमम् अनन्तरं शायिरवळि भगिनीम् उद्दिश्य अहं पृच्छामि भगिनी अस्ति वा
आं भगिनि
भगिनी भवती सम्यक् गृहपाठं कृतवती वा
आं भगिनि अहं गृहपाठं
गृहपाठं कृतवती अहं गृहपाठं कृतवती
अहं गृहपाठं कृतवती
आम् अहं गृहपाठं कृतवती
आम् अहं गृहपाठं कृतवती
कृतवती यदि भवती कृतवती चेदेव इफ् यु डिड् द होम्वर्क् देन् ओन्लि यु आर् सपोस् टु से दिस् नो चेत् न भगिनी
न
गृहपाठं न कृतवती तथा एव वक्तव्यम् अनन्तरम् अत्र देवीश्री सीता भगिनी अस्ति वा देवीश्री भगिनी अस्ति वा नास्ति चेत् रम्या भगिनी देवीश्री
भगिनी
भवत्याः आरोग्यं सम्यक् अस्ति वा
मम आरोग्यं
सम्यक्
सम्यक्
अस्ति
भवत्याः आरोग्यम् आं भगिनि मम आरोग्यं सम्यक् सम्यक् अस्ति
उत्तमं भवती अवगच्छति वा यत् इदानीं पर्यन्तम्
अहं
वदतु
आं भगिनि अवगच्छतु
अहम् अवगच्छामि
अहम् अवगच्छामि अहम् आं भगिनि अहम् अवगच्छामि
अवगच्छामि आम् इदानीं पर्यन्तं यत् मया उक्तं तत् स्पष्टं वा
भगिनी
वदतु महोदय
एकः
प्रश्नः अस्ति
एकः प्रश्नः अस्ति सन्ति द्वे पदं हौ टु यूस् डस् इट् डिफर् एनी डिफरेन्स् इन् दट्
अस्ति महोदय भेदः अस्ति तयोर्मध्ये यदि एकवचने वदामश्चेत् अस्ति बालकः अस्ति इति वदामः यदि एकवचने वदामश्चेत् बालकः अस्ति अदे बहुवचने वदामश्चेत् बालकाः सन्ति बालकाः सन्ति
सन्ति
बहुवचने सन्ति मध्ये द्विवचनमपि अस्ति अहं पूर्वमेव उक्तवती संस्कृतभाषायां नामपदानि सप्तसु विभक्तिषु भवन्ति त्रिषु लिङ्गेषु भवन्ति त्रिषु वचनेषु भवन्ति त्रिषु वचनेषु इत्युक्ते एकवचनं द्विवचनं बहुवचनं बालकः अस्ति बालकौ सः बालकाः सन्ति
एकवचनं अथवा द्विवचनं बालकः अस्ति बहुवचनं सन्ति
एकवचने बालकः अस्ति बहुवचने बालकाः सन्ति
ओ ओके
बालकः अनन्तरम् अत्र अत्र के के सन्ति अपि च राजीव् सिङ्ग् महोदय भवन्तम् उद्दिश्य अहं वदामि राजीव् महोदय अस्ति वा
आं भगिनि
इदानीं पर्यन्तं यत् मया उक्तं तत् स्पष्टं वा वाट् ऐ हेव् टोल्ड् यू सो फार् आर् यु एबल् टु इस् इट् क्लियर् फार् यू
आं भगिनि
आम् आम् स्पष्टं स्पष्टमस्ति तथा एव भवन्तः सर्वे पूर्वमेव संस्कृतं पठितवन्तः वा वदतु महोदय
अहं संस्कृतं पठ्यन्ति अण्टिल् 8th ग्रेड्
आम् आं भगिनि अहं पृच्छामि भवन्तः भवतां भवन्तम् उद्दिश्य वदामि
वेदान्तशास्त्रे स्वल्पम् अहं पठामि भगिनि
किमर्थं एतत् किमर्थं पृच्छामि चेत् अत्र भवन्तः पूर्वमेव संस्कृतं पठितवन्तः वा इति अहं प्रश्नं पृच्छामि चेत् तस्य उत्तरं किं भवति? पठन्ति चेत्
अहं पठामि,
आम् आम् अहं पठितवान्,
पठामि,
नो चेत् किं वक्तव्यम्? पठन्ति चेत् आम् अहं पठितवान्, नो चेत् न पठितवान् तथा वदामः. अद्य वयम् आम् न इति नूतनपदानां विषये किञ्चित् अभ्यासं कुर्मः. सर्वे अभ्यासपुस्तकम् उद्घाटयन्तु. अत्र सर्वे अभ्यासपुस्तकम् उद्घाटयन्तु. अनन्तरं तत्र चतुर्थपुटे तत्र किमस्ति इति पश्येम. इदानीम् आम् न इत्यस्मिन् विषये अत्र किञ्चित् अभ्यासं कुर्मः. अत्र श्रीरम्या भगिनी, भवती अत्र चतुर्थे पुटे किमस्ति अत्र पश्यतु, अस्ति वा भगिनी? श्रीरम्या भगिनी पठतु अत्र चतुर्थपुटे. प्लीज ओपन आल ऑफ यू अभ्यासपुस्तकम्. वी आर ऑन पेज 4. ऐ एम अज्यूमिंग दैट यू ऑल अंडरस्टूड द फर्स्ट 3 पेजेस परफेक्टली. नो चेत सर्वे ध्वनिमुद्रणं शृण्वन्तु. ऐ रिक्वेस्ट यू ऑल टू लिसन टू द ऑडियो फाइल सो दैट यू कैन गेट अ बेटर आइडिया ऑफ व्हाट वी हैव स्टडीड बिफोर.
आम भगिनी,
वयं सम्यक्तया पठितवन्तः प्रथम त्रीणि त्रयः पृष्ठाः चतुर्थे पुटे. पठतु भगिनि, अत्र किमस्ति?
अत्र कति प्रश्नानि अस्ति?
कानिचन केचन प्रश्नाः सन्ति.
केचन प्रश्नाः सन्ति अत्र. केचन प्रश्नानि सन्ति.
प्रश्नाः सन्ति किमर्थं तथा? प्रश्नः पुंलिङ्गपदं. प्रश्नः
पदम्.
अतः केचन प्रश्नाः सन्ति इति वदामः. अत्र उपरि रक्तवर्णैः अक्षरैः लिखितं वाक्यमस्ति, एकं वाक्यम् इन् रेड् कलर्. सा एव सूचना. प्रथमतया सूचनां पठतु.
उदाहरणं दृष्ट्वा वाक्यानि लिखतु.
उदाहरणं दृष्ट्वा वाक्यानि
लिखतु.
अत्र प्रथमं चित्रमस्ति. प्रथमं चित्रं तस्मिन् सा का?
सा बालिका. सा बालिका.
सा बालिका. उत्तमम्. सा बालिका इति एकं लघुवाक्यं, सरलवाक्यं. सा बालिका एकं लघुवाक्यं.
लघुवाक्यम्.
इट्स् अ वेरि स्माल् सेण्टेन्स्. तथा एव यदि वयं न जानीमः सा का इति, इफ् वी डोण्ट् नो हू शी इस् देन् तथा केवलं वा इति पदं योजनेन तत् वाक्यं प्रश्नार्थकवाक्यं भवति. सा बालिका इति एकं लघु सरलवाक्यं. यदि वयं वा इति पदं योजयामश्चेत् तत् वाक्यं प्रश्नार्थकवाक्यं भवति. कथं भवति? भवती एव पठतु प्रश्नार्थकवाक्य उच्चारणं कृत्वा वदतु. सा बालिका वा?
सा बालिका वा?
सा बालिका वा? भगिनी भवत्याः दूरवाण्यां बहु ध्वनिः अस्ति. बहु किमपि ध्वनिः अस्ति. वदतु अत्र प्रश्नः कः अत्र? सा बालिका वा इति प्रश्नं पृच्छामश्चेत् उत्तरं किं भवति? उत्तरं तत्रैव दत्तमस्ति.
आम् सा बालिका
आम् सा बालिका हा द्वितीयं करोतु तत्र तत्र रिक्तस्थानमस्ति रिक्तस्थानं तत्र किं वक्तव्यं
सः बालकः वा
सः बालकः वा उत्तरं किं
बालकः वा आम् सः बालकः
सः बालकः तृतीयं करोतु तृतीयं वाक्यं तत्रापि रिक्तस्थलम् यदि द्वारं भवत्याः पार्श्वे अस्ति चेत् एतत् द्वारं वा इति वदामः यदि द्वारं दूरे अस्ति चेत् तत् द्वारं वा इति वदामः यदि वा इति पदं योजनेन तद्वाक्यं प्रश्नार्थकवाक्यं भवति
आं भगिनि
उत्तरं किं तद्वारं वा इति वाक्यस्य तस्य उत्तरं किं भवति
आं तत् द्वारम्
उत्तमम् अनन्तरम् अत्र कस्य यस्य क्रमः न आगतः कृपया वदन्तु हू स्टोन् डिड् नाट् कम् ऐ रिक्वेस्ट् यू दट् पर्सन् टु
लक्ष्मी भगिनी दिस् इस् राजीव् हियर् केन् ऐ स्पीक्
वदतु महोदय चतुर्थं करोतु
सः सैनिकः वा
सः सैनिकः वा
न
तत्र के
न सः सैनिकः
सः सैनिकः न
सः सैनिकः
अत्र अत्र किं दृश्यते वाट् यू केन् सी सः
वैद्यः
सः वैद्यः कः कथं ज्ञातुं शक्नुमः हौ केन् वि रिकग्नैस् दट् हि इस् द डाक्टर् सः स्यन्दमापिनीं धृत्वा कार्यं करोति स्यन्दमापिनी इत्युक्ते स्टेटस्कोप् ईकारान्तपदं स्यन्दमापिनी सः स्यन्दमापिनीं धृत्वा कार्यं करोति सः वैद्यः
सः
सैनिकः न
सः वैद्यः
सः सैनिकः can you repeat the sentence सः स्यन्दमापिनीं धृत्वा
कार्यं करोति सः चिकित्सकः सः चिकित्सां करोति सः वैद्यः सः सैनिकः वा
सः सैनिकः
उत्तरं किं
सः वैद्यः
न सः सैनिकः न
सैनिकः न
सः
वैद्यः
सः वैद्यः उत्तमम् अनन्तरं पञ्चमं भवानेव करोतु महोदय
सा युवती वा
सा युवती कथं दृश्यते सा युवतिः वा अथवा वृद्धा वा सा का
सा युवती युवतिः
सा वृद्धा इव दृश्यते सा वृद्धा इव दृश्यते
सा वृद्धा
बालिकाना सा वृद्धा इव अस्ति सा युवतिः वा इति प्रश्नं पृच्छामश्चेत् तस्य उत्तरं न सा युवतिः न सा वृद्धा सा वृद्धा इति वदामः युवतिः इति पदस्य इत्यस्मिन् विषये किञ्चित् वदामि युवतिः इति पदम् ईकारान्त स्त्रीलिङ्गपदम् इकारान्त स्त्रीलिङ्गपदम्, अन्ते विसर्गः अस्ति, परन्तु परन्तु इति चेत् पुंलिङ्गपदम्. ओके, इन् द वेरि बिगिनिङ्ग् ओन्लि ऐ एक्स्प्लेन्ड् इट् टु यू द रूल्स् विल् वर्क् बट् नाट् आल् द टैम्. अत्र युवतिः इति पदमस्ति, युवतिः इति पदं स्त्रीलिङ्गपदं, यथा मतिः पदम् इव, लैक् द वर्ड् मतिः, युवतिः इकारान्त ह्रस्व इकारान्त स्त्रीलिङ्गपदं युवतिः. युवतिः तस्य पुंलिङ्गे किं भवति महोदय?
एक्सेप्शन्,
उत्तमं. परन्तु अहं पृच्छामि, युवतिः इति पदस्य पुंलिङ्गरूपं किं भवति?
युवकः भगिनि.
युवकः, युवकः, युवतिः पुंलिङ्गे युवकः,
युवकः
इति वदामः. सा अत्र सा युवतिः न, सा वृद्धा. अन्तिमं करोतु महोदय.
तत् चित्रं वा
स्पष्टतया वदतु.
न तत् चित्रम्.
तत् चित्रं वा, उत्तरं किम्?
न तत्र
तत् चित्रं न,
तत् चित्रं
न. तत् किं?
तत् what do you call bus?
लोकयानं.
लोकयानं.
तत् किं? तत् लोकयानं. यदि लोकयानं भवतः पार्श्वे अस्ति चेत् एतत् लोकयानं तथा वदामः.
एतत् लोकयानम्,
एतत् लोकयानम् इति वदामः. अनन्तरं तथा एव अत्र कानिचन अन्यानि उदाहरणानि अपि अत्र सन्ति, किञ्चित् पश्येम अधुना. अत्र आम् न, तस्य कृते एव अत्र बु भागे अपि एकः अभ्यासः अस्ति, तदपि अधुना वयं कुर्मः. अनन्तरं सुब्बाराव महोदय, भवान् कर्तुमिच्छति वा, अत्र पठितुमिच्छति वा?
आम्
वदतु महोदय, अत्र किम् अस्ति, किं लिखितमस्ति?
कः भगिनि? चित्रम् इस् द लास्ट् क्वश्चन्
रैट्? तत् चित्रं वा, तस्य उत्तरं तत् चित्रं नास्ति, तदर्थमेव तत् लोकयानं.
तत् चित्रं वा न?
तत् अभवत् महोदय, तत् अभवत्. इट् वास् ओवर्.
ओके,
अनन्तरम् अत्र निर्मला बालिका तथा अस्ति.
ओके, निर्मला निर्मला बालिका
निर्मला बालिका वा?
उत्तमम्, उत्तमम्. अत्र अत्र अस्माकम्
आम निर्मला, आम निर्मला बालिका.
अत्र अहं वदामि, किञ्चित् वदामि. अत्र अत्र निर्मला बालिका युवतिः इति त्रीणि पदानि अस्ति. अत्र वयं तिर्यक् रीत्या पठामः. वि नीड् टु रीड् हारिजेण्टल्लि, नाट् वर्टिकल्लि. तिर्यक् रीत्या पठामः. निर्मला बालिका युवतिः त्रीणि पदानि उपयुज्य अत्र वाक्यं रचयामः. अत्र अत्र उदाहरणं दत्तमस्ति. प्रथमतया सूचनां पठतु महोदय. कः वदति, कः वक्तुमिच्छति?
आं भगिनि, अहं सायश्री रम्या.
करोतु भगिनि.
एतस्य कोष्ठकस्य साहाय्येन वाक्यानि लिखतु.
अत्र पश्यतु, एतस्य कोष्ठकस्य द्वे पदे अपि षष्टिविभक्तौ स्तः. एतस्य, एषः वयं जानीमः, वि नो द वर्ड् एषः. एषः पदस्य षष्ट्यन्तरूपम् एतस्य. अनन्तरं कोष्ठकम्, कोष्ठकमित्युक्ते दट् ग्रिड्, कोष्ठकं, कोष्ठकं नपुंसकलिङ्गपदं, तस्य षष्टिविभक्तेः रूपं कोष्ठकस्य. एतस्य कोष्ठकस्य द्वे पदे अपि षष्टिविभक्त्यन्तपदे रूपे. अनन्तरं साहाय्येन इति पदमस्ति, तृतीयाविभक्तौ अस्ति. अनन्तरं वाक्यानि इति पदमस्ति. वाक्यानि इति पदं बहुवचने अस्ति. कः वक्तुं शक्नु वक्तुमिच्छति तस्य एकवचनरूपं किम्?
वाक्यं.
सुन्दरं, सुन्दरं. भवती वदतु भगिनि, रूपाणि कानि प्रथमाविभक्तौ? वाक्यम् एकवचनं,
वाक्यम् एकवचनं, वाक्यानि बहुवचनं.
सुन्दरं, वाक्यम् एकवचनं,
वाक्ये
द्विवचनं, वाक्यानि बहुवचनं. अनन्तरं लिखतु इति पदमस्ति, भवन्तः जानन्ति एव, गतसप्ताहे एव अहम् उक्तवती. लिखतु इति पदं क्रियापदम् अपि च लोट्लकारे अस्ति. अधुना वयं प्रथम उदाहरणम् अस्माकं कृते पूर्वमेव अत्र दत्तमस्ति. पठतु भगिनि, अत्र उदाहरणत्वेन किं दत्तम्?
निर्मला बालिका वा? आम्, निर्मला बालिका. सा युवतिः न.
सा युवतिः न. कथं कथं भवती अत्र उपरि किं दत्तमस्ति? अत्र कोष्ठके बालिका इत्यस्मिन् पदस्य तस्य पार्श्वे एकं चिह्नम् अस्ति. तत्र पश्यन्तु, बालिका, बालिका इति पदस्य पार्श्वे एकं चिह्नम् अस्ति. तस्य अर्थः कः?
आम्, सा बालिका.
सत्यं,
सत्यं,
सा बालिका इति अर्थः, तस्य अर्थः. चिह्नं, चिह्नम् अस्ति, चक् मार्क्. चक् मार्क् इत्युक्ते एकं चिह्नम्. अचिह्नं, तस्य अर्थः कः? कः? सा बालिका,
सा बालिका
इति अर्थः. अनन्तरम् अत्र एव पश्यतु, युवतिः इति पदस्य तस्य तत्र कोष्ठके क्रास् मार्क् अस्ति, असत्यं. तदर्थमेव तदनुसृत्य एव वयम् अत्र वाक्यानि रचयामः. कोष्ठकस्य साहाय्येन एव वयम् अत्र वाक्यानि रचयितुं शक्नुमः. तदर्थमेव कोष्ठकं सावधानतया पश्यन्तु, तदानीम् एव वयं सम्यक्तया वाक्यानि रचयितुं शक्नुमः. द्वितीयमपि अस्माकं कृते पूर्वमेव कृतं, पठतु भगिनि द्वितीयं किम्?
रोहिणी वैद्या वा? न, रोहिणी वैद्या न, सा विद्यार्थिनी.
सा विद्यार्थिनी. अत्र अहं पृच्छामि भगिनि, बालिका इति पदस्य पुंलिङ्गे वदामश्चेत् किं वदामः?
बालिका,
बालिका
स्त्रीलिङ्गः, स्त्रीलिङ्ग. बालकः अथवा बालः पुंलिङ्गं, पुंलिङ्गम्.
उत्तमम्, उत्तमम्. अनन्तरं वैद्या,
वैद्या स्त्रीलिङ्ग. वैद्यः पुंलिङ्ग
उत्तमं भगिनि तथा एव अत्र विद्यार्थिनी
विद्यार्थिनी स्त्रीलिङ्ग
लिङ्गं किं
स्त्रीलिङ्ग विद्यार्थिनी दीर्घ दीर्घमेकार
दीर्घैकारान्त स्त्रीलिङ्गान्त पुंलिङ्गे किं भवति
विद्यार्थिः विद्यार्थी अथवा
पश्यतु भगिनि विद्यार्थिः सम्यक् नास्ति विद्यार्थी
विद्यार्थी
पुंलिङ्गे विद्यार्थी
विद्यार्थी
स्त्रीलिङ्गे
विद्यार्थिनी
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 तथा विद्यार्थिः असमीचीनं पदं सम्यक् नास्ति
विद्यार्थी
विद्यार्थी विद्यार्थिनी उत्तमं तृतीयं कर्तुम् इच्छति वा करोतु भगिनि
महेशः विद्यार्थी विद्यार्थी वा आम् महेशः विद्यार्थी सः वैद्यः न सः वैद्यः न
उत्तमम् उत्तमम् अनन्तरं कः करोति अधुना समीर महोदय भवान् कर्तुम् इच्छति वा चतुर्थम् अनन्तः
अनन्तः शिक्षकः वा आम् अनन्तः शिक्षकः
महोदय पश्यतु आम् तत्र मकारः एव अस्ति मा नास्ति मकारः आम्
आम्
आम आम असमीचीनम् इट्स् नाट् करेक्ट् आम नाट् करेक्ट् आम्
आम् आम् अनन्तः शिक्षकः
सः अनन्तः कः
सः लिपिकार न
सः लिपिकारः
न
न सः लिपिकारः
सः लिपिकार न
लिपिकारः इत्युक्ते
रैटर्
उत्तमं क्लर्क् आर् रैटर् साधारणतया कार्यालये यः केवलं लेखनकार्यं करोति यः लेखनकार्यं करोति सः एव लिपिकारः इति वदामः आङ्ग्लभाषायां क्लर्क् अथवा रैटर् इति वदामः अनन्तः शिक्षकः सः लिपिकारः न उत्तमम् अनन्तरं पञ्चमं
देवदत्त देवदत्तः न्यायवादी वा
न्यायवादी
न्यायवादी
वा भवान् एव वदतु सः न्यायवादी वा
न
अत्र किं दत्तं
देव न देवदत्त
न्यायवादी न देवदत्तः विसर्गः तस्य उच्चारण सम्यक्तया भवतु यु नीड् टु प्रोनौन्स् द विसर्ग पर्फेक्ट्लि यु केनाट् काम्प्रमैज़् देवदत्तः वदतु महोदय
देवदत्तः न्यायवादी न
सः कः
सः
उट्टङ्कः उट्टङ्कः इत्युक्ते यः उट्टङ्कनं करोति सः उट्टङ्कः इत्युक्ते टैपिस्ट् उट्टङ्कनं करोति सः उट्टङ्कः अन्तिमं करोतु
नागराजः चित्रकारः वा
चित्रकारः वा न वा अत्र किं दत्तं
नागराज चित्रकारः नागराजः चित्रकारः न
सः कः
सः आरक्षकः
सः आरक्षकः आरक्षकः इत्युक्ते
पोलीस्
पोलीस् उत्तमम् अत्र अहं किञ्चित् वक्तुमिच्छामि शिक्षकः इति पदमस्ति शिक्षकः पदं स्त्रीलिङ्गे वदामश्चेत् किं वदामः शिक्षकः पुंलिङ्गपदं
शिक्षिका
भगिनी भगिनी महोदय
शिक्षिका
भगिनी भगिनी जनरलि नो देन् युवर् टर्न् कम् देन् आन्सर् मी इट्स् ओके नौ वदतु महोदय शिक्षकः पदस्य स्त्रीलिङ्गरूपं स्त्रीलिङ्गे तस्य उपयोगं भवति चेत् उपयोगः भवति चेत् कथं स्त्रीलिङ्गे शिक्षिका शिक्षकः इति पदं पुंलिङ्गे अस्ति स्त्रीलिङ्गपदं शिक्षिका भवति अनन्तरम् अत्र न्यायवादी इति पदमस्ति न्यायवादी इति पदं स्त्रीलिङ्गे वदामश्चेत् किं वदामः ऊहं करोतु महोदय वक्तुं शक्नोति वा भवान् कः वदति न्यायवादी पदस्य स्त्रीलिङ्गे किं वदामः
न्यायवादिनी
उत्तमं न्यायवादिनी उत्तमं न्यायवादिनी अनन्तरम् अत्र चित्रकारः इति पदमस्ति चित्रकारः इति पदस्य स्त्रीलिङ्गरूपं किं भवति चित्रकारिणी उत्तमम् उत्तमं चित्रकारिणी अहं चिन्तयामि आरक्षकः इति पदस्य स्त्रीलिङ्गरूपम् आरक्षिका इति अहं चिन्तयामि परन्तु अग्रिमे सप्ताहे दृष्ट्वा वदामि अत्र पश्यन्तु निर्मला बालिका आकारान्तपदे रोहिणी ईकारान्तपदं महेशः अनन्तः देवदत्तः नागराजः शिक्षकः चित्रकारः वैद्यः लिपिकारः उट्टङ्ककः आरक्षकः एतानि सर्वाणि पदानि अपि अकारान्त पुंलिङ्गपदानि परन्तु अत्र न्यायवादी पदमपि पुंलिङ्गपदमेव अत्र विद्यार्थी अपि पुंलिङ्गपदं परन्तु विद्यार्थी अपि च न्यायवादी ते द्वे अपि हलन्तपदे अजन्तपदानि नास्ति अहं पूर्वमेव उक्तवती नामपदेषु अजन्तपदानि सन्ति हलन्तपदानि सन्ति अत्र विद्यार्थी इति पदं हलन्तपदं विद्यार्थिन् नकारान्तपदं तथा एव न्यायवादी न्यायवादिन् नकारान्तपदं विद्यार्थी न्यायवादी नकारान्त पुंलिङ्ग पदद्वयं प्रथमाविभक्तौ एकवचने स्तः तथा अनन्तरम् अत्र किम् अस्ति अनन्तरं किञ्चित् एव समयः अस्ति अत्र पञ्चमपुटं प्रति गच्छेम अधुना अत्र किमस्ति पञ्चमपुटं पश्याम अत्र हस्मुखमहोदय भवान् पठितुमिच्छति वा अत्र किमस्ति पञ्चमे पुटे अत्र कः वदति
आं भगिनी अहं साईश्रीरम्या अत्र कति केचन पदानि कति पदानि अस्ति
केचन पदानि सन्ति अत्र कोष्टकमस्ति कोष्टके
केचन पदानि सन्ति
कानिचन पदानि सन्ति अथवा वी केन् से कानिचन पदानि सन्ति अथवा केचन शब्दाः सन्ति
कानिचन पदानि केचन शब्दानि
शब्दाः केचन शब्दाः सन्ति कानिचन पदानि सन्ति अत्र अत्र अस्माकं कार्यं किम् अत्र सूचनां पठतु भगिनी रिक्तस्थलानि
सः सा तत् एतेषु उचितरूपेण पूरयतु
पूरयतु अत्र अनन्तरमपि अत्र त्रीणि वाक्यानि दत्तानि ते अपि ताः अपि सूचनाः एव पुंलिङ्गशब्दतः पूर्वं
सः पुंलिङ्गशब्दतः पूर्वः सः
इत्येव
पूर्वं सः इत्येव लेखनीयम्
लेखनीयं यदि तत्र पुंलिङ्गशब्दः अस्ति चेत् तस्मात् पूर्वं सः इति एव लेखनीयं सा एका सूचना दट् मीन्स् इफ् यु फैण्ड् द वर्ड् इफ् यु फैण्ड् द पुंलिङ्गपदं देन् यु आर् सपोस् टु रैट् सः इन् फ्रण्ट् आफ् इट् उपरि पुंलिङ्गपदानि कानि पठतु तेषु कोष्टकं पश्यतु तस्मिन्
रामः श्लोकः दर्पणः ग्रन्थः विद्युद्दीपः गजः
उत्तमम् एतानि सर्वाणि अपि पुंलिङ्गपदानि तेषां दत्तेभ्यः पूर्वं वयं सः इति लेखनीयं सः प्रथमं करोतु भगिनि अत्र द्वितीयसूचना तदपि पठतु
स्त्रीलिङ्गशब्दतः पूर्वं सा इत्येव लेखनीयं
तृतीयं वाक्यं
नपुंसकलिङ्गशब्दतः पूर्वं तत् इत्येव लेखनीयं
भवती अवगच्छति वा
आं भगिनि
अहम् अवगच्छामि भवती एव करोतु प्रथमं करोतु
सः रामः
द्वितीयं
सः ग्रन्थः
तृतीयं
सः श्लोकः सः दर्पणः सः विद्युद्दीपः सः गजः
उत्तमं द्वितीयमपि करोतु अत्र स्त्रीलिङ्गपदानि अत्र स्त्रीलिङ्गपदानि कानि
स्त्रीलिङ्गपदानि सीता घटी बालिका लता सञ्चिका लेखनी
तेषु आकारान्तानि कानि ईकारान्तानि कानि
आकारान्तानि सीता बालिका लता सञ्चिका
उत्तमम् अत्र सञ्चिका अत्र पश्यतु ईकारान्त वदतु भगिनि
घटी लेखनी
उत्तमम् अत्र सञ्चिका इति पदं पश्यतु कथमस्ति पदं तत्र मकारः श्रूयते परन्तु मकारः अथवा अनुस्वारः न लिखितमस्ति यु डोण्ट् फैण्ड् अनुस्वारः अथवा मकारः परन्तु यु केन् हियर् द सौण्ड् आफ् मकारः अथवा अनुस्वारः तथा एव लेखनीयं सञ्चिका किन्तु तत्र लेखनशैल्यां वैशिष्ट्यम् अस्ति. देर् इस् अ स्पेशालिटि इन् रैटिङ्ग् दट् वर्ड्. वि जनरलि डोण्ट् रैट् द वर्ड् लैक् देट्. सञ्चिका तत्र लेखनशैल्यां वैशिष्ट्यम् अस्ति. तत्र सञ्चिका तत्र किमस्ति चेत् चवर्गः. चवर्गः इत्युक्ते च छ ज झ ण णि. चवर्गे पञ्चवर्णानि सन्ति. अन्तिमवर्णः अनुनासिकवर्णः इति वदामः. इणि प्रथमतया तत्र इणि अस्ति, अनन्तरं चकारः अस्ति. तथा एव लेखनीयं सञ्चिका इति लिखामश्चेत् तथा एव लेखनीयं सञ्चिका. यु आर् नाट् सपोस् टु यूस् अनुस्वारः अथवा मकारः. यु आर् सपोस् टु रैट् एक्साक्ट्लि लैक् दिस् सञ्चिका. पश्यतु भगिनि अत्र अनन्तरं करोतु. सीता, सा सीता.
सा सीता. सा घटी. सा बालिका. सा लता. सा सञ्चिका. सा लेखनी.
उत्तमम्. अनन्तरं नपुंसकलिङ्गपदानि.
तत् पुस्तकं. तत् पुष्पं. तत् वस्त्रं. तत् गृहं. तत् चित्रं. तत् पत्रम्.
उत्तमम्. उत्तमं. धन्यवादः भगिनी. उत्तमम्. इदानीं पर्यन्तं यस्य क्रमः न आगतः सः पठति. सो फार् हूस् टोन् डिडिण्ट् कम्, ऐ रिक्वेस्ट् यू दट् पर्सन् टु कम् अण्ड् फिनिश् द बाटम् पार्ट्. इदानीं पर्यन्तं यस्य कस्यापि क्रमः न आगतः चेत्
अहं कार्यक्रमम् अस्ति, मयि नित्यकर्मानुष्ठानम् इतर कार्यं कार्यक्रमम् अस्ति. प्लीस् केन् ऐ टेक् लीव्? ऐ रिक्वेस्ट् यु.
ओके महोदय.
सन्ध्यावन्दनम् उपासनम् इतर कार्यम् अस्ति, पूजा. सो प्लीस् एक्स्क्यूस् मी. Then another thing, I have not received the previous classes email, Grahapataha. I have not received, but the other things now I started receiving. I think, I hope henceforth I will receive yours also, because there was a problem.
Email, Mahodaya, email prashayatu. Email
message.
If you want to, any of you, if you want to say anything, I request you all to send me an email.
Can I have your email?
Certainly, I will respond to you. Okay, Anantram Mahodaya. Anantram Vayam, Adhna, Kaha Karoti? Samir, Samir Mahodaya Bhavan Kartumi Chitiva. Antimam. Antimam Bhagaha.
Kaha?
Ramaha? Riktasthalani. भगिनी कृतवती. रामः
कः? रामः
उत्तरं किं भवति?
रामः
उपरि अत्र सूचना दत्तमस्ति. रिक्तस्थलानि
कः?
पश्यतु महोदय, रिक्तस्थलानि
ग्रन्थः.
न अत्र पश्यतु, रिक्तस्थलानि. एषः, एषा, एतत्, कः,
स्थलानि. एषः, एषा, एतत्, कः, का, किम्.
एतेषु,
एतेषु
उचितरूपेण पूरयतु.
उचितरूपेण पूरयतु.
उत्तमं. सो यु आर् सपोस् टु यूस् दोस् वर्ड्स्.
ओके.
कः रामः?
कः रामः?
उत्तरं किम्
एषः रामः
एषः रामः
और सः रामः
शीघ्रं शीघ्रं करोतु महोदय केवलं पञ्चनिमिष पर्यन्तं कुर्मः
कः
ग्रन्थः
ग्रन्थः एषः ग्रन्थः और सः ग्रन्थः
केवलम् एषः एव अत्र लेखनीयम्
ओके
he insisted us to write only एषः एषः एतत्
okay
this exercise is meant for those three words
okay
karatu
kaha shlokah एषः श्लोकः
उत्तमं
कः दर्पणः
कः दर्पणः
एषः कः दर्पणः एषः दर्पणः कः विद्युद्दीपः विद्युद्दीपः एषः विद्युद्दीपः कः गजः एषः गजः
अनन्तरं द्वितीयं स्त्रीलिङ्गपदं का सीता
का सीता एषा सीता
उत्तमं
का घटी एषा घटी का बालिका एषा बालिका का लता एषा लता का संचिका एषा संचिका का लेखनी एषा लेखनी
उत्तमं नपुंसकलिङ्गपुदानि किं पुस्तकम्
एतत् पुस्तकं किं पुष्पम् एतत् पुष्पं किं वस्त्रम् एतत् वस्त्रं किं गृहम् एतत् गृहं किं चित्रम् एतत् चित्रं किं पत्रम् एतत् पत्रम्
उत्तमं धन्यवादः महोदय
धन्यवादः
अधुना 10:09 अभवत् अस्माकं कृते अमेरिकादेशे 10:09 अभवत् अधुना विरमाम अग्रिमे सप्ताहे वयं पुनर्मिलामः अपि च नूतनानि पदानि अपि ज्ञास्यामः सर्वेषां धन्यवादः शुभरात्रिः
शुभरात्रिः धन्यवादः लक्ष्मी भगिनी
धन्यवादः